ॐ कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमाह्निकम् कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमाह्निकम् उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु माता समस्त जगता मधुकैठ भारे वक्षो विहारिणी मनोहर दिव्य मूर्ते श्री स्वामिनिश्रित जन प्रिय दान शीले श्री वेंकटेश दयिते तव सुप्रभातम् माता समस्त जगता मधुकैट भारे वक्षो विहारिणी मनोहर दिव्य मूर्ते श्री स्वामिनिश्रित जन प्रिय दान शीले श्री वेंकटेश दयिते तव सुप्रभातम् तव सुप्रभातमरविंद लोचने भवतु प्रसन्न मुख चंद्र मंडले विधि शंकरेन्द्र वनिता विरचिते वृषशैलनाथ दयिते दयानिधे अत्र्यादि सप्त ऋषयस्य मुपास्य संध्या आकाश सिंधु कमलानि मनोहराणि आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखर विभो तव सुप्रभातम् पञ्चाननाभ्य भव षण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधास्तुवन्ति भाषापतिपटति वासरशुद्धिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम् ईशत् प्रफुल्ल सरसीरुह नारिकेल पूगद्रुमादिसु मनोहर पालिकानाम् आवाति मन्दमनिलः सह दिव्यगन्धैः शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील्य नेत्रयुगमुत्तम पञ्जरस्थाः पात्रावशिष्ठ कदली फलपायसानि भुक्त्वा सलीलमथ केलिशुका पटन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तन्त्री प्रकर्ष मधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि भाषा समग्रम सकृत्करचाररम्यं शेषाद्रिशेखर विभो तव सुप्रभातम् भृङ्गावली च मकरन्दरसानुविद्ध झङ्कार गीतनि नदैः सह सेवनाय निर्यात्युपान्त सरसी कमलोदरेभ्य शेषाद्रिशेखर विभो तव सुप्रभातम् योषागणेन वरदद्नि विमध्यमाने घोषालयेषु दधि मन्थन तीव्र घोषाः रोषात् कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या भेरीनिनादमिव भिप्रतितीव्रनादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिलोकबन्धो श्री श्रीनिवास जगदेक दयैक सिन्धो श्रीदेवतागृह भुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिलोकबन्धो श्री श्रीनिवास जगदेक दयैक सिन्धो श्रीदेवतागृह भुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीस्वामि पुष्करिणी काप्लव निर्मलाङ्गाः శ్రేయోర్తినోహర విరించి సనందనాద్యాః ద్వారే వసంతి వరవేత్ర హతోత్తమాంగాః శ్రీవేంకటాచలపతే తవ సుప్రభాతం. శ్రీశేషశైల గరుడాచల వెంకటాద్రి నారాయణాద్రి వృషభాద్రి వృషాద్రి ముఖ్యాం ఆఖ్యాం త్వదీయ వసతేర నిశం వదంతి శ్రీవేంకటాచలపతే తవ సుప్రభాతం. సేవా పరాశివ సురేశ కృషాను ధర్మ రక్షోంభునాథ పవమాన ధనాదినాథ బుద్ధాంజలి ప్రవిలసన్నిజ శీర్ష దేశ శ్రీవేంకటాచలపతే తవ సుప్రభాతం. ధాటీషుతే విహగరాజ మృగాధిరాజ నాగాధిరాజ గజరాజ హయాధిరాజ స్వస్వాధికార మహిమాధికమర్థయంతే శ్రీవేంకటాచలపతే తవ సుప్రభాతం. సూర్యేందుభౌమ బుధ వాక్పతి కావ్య సౌరి స్వర్భానుకేతది విశత్ పరిషత్ ప్రధాన త్వద్దాస దాస చరమావతి దాస దాస శ్రీవేంకటాచలపతే తవ సుప్రభాతం. త్వత్పాదధూళిభరిత స్ఫురితోత్తమాంగాః స్వర్గాపవర్గ నిరపేక్ష నిజాంతరంగాః కల్పాగమాకలనయాకులతాం భంతే శ్రీవేంకటాచలపతే తవ సుప్రభాతం. త్వద్గోపురాగ్రశిఖరాణి నిరీక్షమాణాః స్వర్గాపవర్గ పదవీం పరమాంశయంతః మర్త్యా మనుష్య భువనే మతిమాశ్రయంతే శ్రీవేంకటాచలపతే తవ సుప్రభాతం. శ్రీభూమినాయక దయాది గుణామృతాబ్ధే దేవాధిదేవ జగదేక శరణ్యమూర్తే శ్రీమన్ననంత గరుడాది విరర్చితాంగ్రే శ్రీవేంకటాచలపతే తవ సుప్రభాతం. శ్రీపద్మనాభ పురుషోత్తమ వాసుదేవ వైకుంఠ మాధవ జనార్దన చక్రపాణే శ్రీవత్స చిహ్న శరణాగత పారిజాత శ్రీవేంకటాచలపతే తవ సుప్రభాతం. కందర్ప దర్పహర సుందర దివ్యమూర్తే కాంతాకుచాంబురుహ కుట్మలలోల దృష్టే కళ్యాణ నిర్మల గుణాకర దివ్య కీర్తే శ్రీవేంకటాచలపతే తవ సుప్రభాతం. మీనాకృతే కమఠకోల నృసింహవర్ణిని స్వామిన్ పరశ్వత తపోధన రామచంద్ర శేషాంశ రామయదునందన కల్కి రూప శ్రీవేంకటాచలపతే తవ సుప్రభాతం. ఏ లాలవంగ ఘనసార సుగంధితీర్థం దివ్యం వియత్సరితి హేమ ఘటేషు పూర్ణం ధృత్వాద్య వైదిక శిఖామణయ ప్రహృష్టాః తిష్ఠింతి వెంకటపతే తవ సుప్రభాతం. భాస్వానుదేతి వికచాని సరోరుహాణి సంపూరయంతి నినదైక కుభో విహంగాః శ్రీవైష్ణవా సతతమర్థిత మంగళాస్థే ధామాశ్రయంతి తవ వెంకట సుప్రభాతం. బ్రహ్మాదయ సురవరాస మహర్షయస్థే సంతః సనందన ముఖాస్త్వత యోగివర్యాః ధామాంతికే తవ హి మంగళ వస్తుహస్తాః శ్రీవేంకటాచలపతే తవ సుప్రభాతం. లక్ష్మీనివాస నిరవద్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ భక్త భోగ్య శ్రీవేంకటాచలపతే తవ సుప్రభాతం. లక్ష్మీనివాస నిరవద్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ భక్త భోగ్య శ్రీవేంకటాచలపతే తవ సుప్రభాతం. ఇత్తం వృషాచలపతేరిహ సుప్రభాతం ये मानवा प्रतिदिनं पठितुं प्रवृत्ताः तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञापरार्थसुलभां परमां प्रसूते इत्थं वृषाचलपतेरिह सुप्रभातम् ये मानवा प्रतिदिनं पठितुं प्रवृत्ताः तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो कमलायतलोचनलोकपते विजयी भव वेङ्कटशैलपते कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो कमलायतलोचनलोकपते विजयी भव वेङ्कटशैलपते स चतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमने शरणागतवत्सलसारनिधे परिपालय मां वृषशैलपते अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे अधिवेङ्कटशैलमुदारमतेर्जनताभिमतादिकदानरतात् परदेवतया गदितान्निगमै कमलादयितान्न परं कलये कलवेणुरवावशगोपवधूशतकोटिवृषात्स्मरकोटिसमात् प्रतिवल्लविकाभिमतात्सुकदात् वसुदेवसुतान्न परं कलये अभिरामगुणाकरदाशरथे जगदेकधनुर्धरधीरमते रघुनायक राम रमेश विभो वरदुभवदेव दया जलधे अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहं रजनीचरराजतमोमिहिरं महनीयमहं रघुराम महे सुमुखं सुहृदं सुलभं सुकदं स्वनुजं च सुखाय ममोघशरम् अपहाय रघुध्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयर्च प्रयर्च विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयर्च प्रयर्च अहं दूरतस्ते पदाम्भोजयुग्म प्रणामे च यागत्य सेवां करोमि सकृत्सेवया नित्यसेवाफलं त्वं प्रयर्च प्रयर्च प्रभो वेङ्कटेश अज्ञानिना मया दोषानशेषान् विहितान् हरे क्षमस्वत्वं क्षमस्वत्वं शेषशैलशिकामणे अज्ञानिना मया दोषानशेषान् विहितान् हरे क्षमस्वत्वं क्षमस्वत्वं शेषशैलशिकामणे ईशानां जगत्तोऽस्य वेङ्कटपतेर्विष्णो परां प्रेयसी तद्वक्षस्थलनित्यवासरसिकां तक्षान्तिसंवर्धिनीं पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ईशानां जगत्तोऽस्य वेङ्कटपतेर्विष्णो परां प्रेयसी तद्वक्षस्थलनित्यवासरसिकां तक्षान्तिसंवर्धिनीं पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् श्रीमन्कृपाजलनिधे कृतसर्वलोकसर्वज्ञशक्तनतवत्सलसर्वशेषिन् स्वामिन् सुशीलसुलभाषितपारिजात श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये आनूपुरार्पितसुजातसुगन्धिपुष्पसौरभ्यसौरभकरौ समसन्निवेशौ सौम्यौ सदानुभवनेऽपि नमानुभाव्यौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। सद्यो विकासि समुदित्वरसान्द्र राग सौरभ्य निर्पर सरोरुह साम्यवार्ताम् सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। रेखामयध्वज सुधाकलशातपत्र वज्राङ्कुशाम्बुरुह कल्पकशङ्खचक्रैः भव्यैरलङ्कृततलौ परतत्त्वचिह्नैः श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ उद्यन्नघांशुभिरधस्तशशाङ्कभासौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। सप्रेमभीतिकमलाकरपल्लवाभ्यां संवाहनेऽपि सपदि क्लममादधानौ कान्तावग्ननसगोचरसौ कुमार्यौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। लक्ष्मीमहीतदनुरूपनिजानुभावलीलादिदिव्यमहिषीकरपल्लवानाम् आरुण्यसङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। नित्यानमद्वितिशिवादिकिरीटकोटिप्रत्युप्तदीप्तनवरत्नमहप्ररोहैः नीराजनाभितिमुदारमुपादधानौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। विष्णोपदे परम इत्युदितप्रशंसौ यौमध्व उत्सैति भोग्यतयाप्युपाथौ भूयस्थथेति तव पाणितलप्रधिष्ठौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। पार्थाय तत्सदृशसारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणं व्रजेति भूयोऽपि मह्यमिह तौ करदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। मन्मूर्तिकालीयपणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनां चित्तेऽप्यनन्यमनसां समाहितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। आम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। प्रायप्रपन्नजनता प्रथमावगाह्यौ मातुस्तनाविव शिशोरमृतायमानौ प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। सत्त्वोत्तरै सततसेव्यपदाम्बुजेन संसारतारकदयाद्रदृगञ्चलेन सौम्योपयन्त्रमुनिना मम दर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। सत्त्वोत्तरै सततसेव्यपदाम्बुजेन संसारतारकदयाद्रदृगञ्चलेन सौम्योपयन्त्रमुनिना मम दर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये। श्रीषष्ट्रिया घटिकया त्वदुपाय भावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या नित्याश्रिताय निरवद्य गुणाय तुभ्यं त्यां किं करो वृषगिरीश न जातु मह्यम्। श्रीषष्ट्रिया घटिकया त्वदुपाय भावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या नित्याश्रिताय निरवद्य गुणाय तुभ्यं त्यां किं करो वृषगिरीश न जातु मह्यम्। श्रियकान्ताय कल्याणनिधये निधयेऽर्तिनां श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्। श्रियकान्ताय कल्याणनिधये निधयेऽर्तिनां श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्। लक्ष्मीसविभ्रमालोकशुभ्रूविभ्रमचक्षुषे चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम्। श्रीवेङ्कटाद्रिशृङ्गाग्रमङ्गलाभरणाङ्ग्रये मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम्। सर्वावयव सौंदर्य संपदा सर्वचेतसाम् सदा सम्मोहनायास्तु वेंकटेशाय मंगलम् नित्याय निरवध्याय सत्यानंद चिदात्मने सर्वांतरात्मने श्रीमद्वेंकटेशाय मंगलम् स्वतः सर्वविदे सर्वशक्तये सर्वशेषिणे सुलभाय सुशीलाय वेंकटेशाय मंगलम् परस्मै ब्रह्मणे पूर्णकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेंकटेशाय मंगलम् आकालतत्त्वमश्रान्तमात्मनामानुपश्यता अतृप्तमृतरूपाय वेंकटेशाय मंगलम् प्रायस्वचरणौ पुंसान् शरण्यत्वेन पाणिना कृपायातिशते श्रीमद्वेंकटेशाय मंगलम् दयामृततरङ्गिण्यास्तरङ्गैरिव शीतलैः अपाङ्गैः सिञ्चते विश्वं वेंकटेशाय मंगलम् स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये सर्वार्तिशमनायास्तु वेंकटेशाय मंगलम् श्रीवैकुण्ठविरक्ताय स्वामी पुष्करिणी तटे रमया रममाणाय वेंकटेशाय मंगलम् श्रीवैकुण्ठविरक्ताय स्वामी पुष्करिणी तटे रमया रममाणाय वेंकटेशाय मंगलम् श्रीमत्सुंदर जामातृमुनिमानसवासिने सर्वलोकनिवासाय श्रीनिवासाय मंगलम् मंगलाशासन परैर्मदाचार्य पुरोगमैः सर्वैश्च पूर्वैराचार्यै सत्कृतायास्तु मंगलम् मंगलाशासन परैर्मदाचार्य पुरोगमैः सर्वैश्च पूर्वैराचार्यै सत्कृतायास्तु मंगलम्।